మణిప్రభాణాం ముచ్యోతకం దళిత పాపతమోదితానం సమ్యక్ ప్రణమ్య జిన పాదయుగం యుగాదా బాలం వనం భవజలే పతతాం జనానాం. యస్సౌ స్తుతః సకల వాంగ్మయ తత్వబోధాత్ దుద్భూత బుద్ధిపటుభిః సురలోకనాథైః స్తోత్రైర్జగత్కృతయ చిత్తహరైరుదారైః స్తోష్యేకిలాహమపి తం ప్రథమం జినేంద్రం. బుద్ధ్యా వినాపి విబుధాచిత పాదపీఠ స్తోతుం సముద్యతమతిర్విగతత్ర పోహం బాలం విహాయ జలసంస్థితమిందుబింబం అన్యత్ ఇచ్చతి జనః సహసా గ్రహీతుం. వస్తుం గుణాన్ గుణ సముద్ర శశాంక కాంతాన్ కస్తే క్షమ సురగురు ప్రతిమోపి బుద్ధ్యా కల్పాంత కాల పవనోద్గత నక్ర చక్రం కో వా తరితుమలమంబునిధిం భుజాభ్యాం. సోహం తథాపి తవ భక్తి వశాన్ మునీశ కర్తుం సవం విగత శక్తిరపి ప్రవృత్తః ప్రీత్యాత్మవీర్యం విచార్య మృగీ మృగేంద్రం నాభీతి కిం నిజ శిశోః పరిపాలనార్థం. అల్పశ్రుతం శ్రుతవతాం పరిహాసధామ త్వద్భక్తిరేవ ముఖరి కురుతే బలాన్మాం. యత్కో కిలః కిల మధౌ మధురం విరౌతి తచ్చామ్రచారుక కలికాని కరైకహేతు. త్వత్సంస్తవేన భవ సంతతి సన్నిబద్ధం పాపం క్షరాక్షయముపైతి శరీరభాజా ఆక్రాంతలోకమలినీలమశేషమాశు సూర్యాశు భిన్నమివ శార్వరం అంధకారం. మత్వేతినాథ తవ సంస్తవనం మయేదం ఆరభ్యతే తనుధియాపి తవ ప్రభావాత్ చేతో హరిష్యతి సతాండలినీదలేషు ముక్తా ఫలద్యుతిముపైతి ననూద బిందుః. ఆస్తాం తవ స్తవనం మస్త సమస్త దోషం త్వత్సంకథాపి జగతాం దురితాని హంసి దూరే సహస్రకిరణః కురుతే ప్రభైవ పద్మాకరేషు జలజాని వికాసభాంజీ. నాత్యద్భుతం భువన భూషణ భూతనాథ భూతైర్గుణైర్భువి భవంతం భిష్టువంతః తుల్యా भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति दृष्ट्वा भवन्तमनिमेष विलोकनीयम् नान्यत्र तोषमुपयाति जनस्य चक्षुः पीत्वा पयः शशिकरद्युतिदुग्धसिन्धुः क्षारं जलं जलनिधेरसितुं कैच्छे यैः शान्तरागरुचिभिः परमाणुभिः स्वम् निर्मापितस्त्रिभुवनैकललामभूता तावन्त एव खलु तेऽप्यणवः पृथिव्याम् यत्ते समानमपरं न हि रूपमस्ति वक्त्रं क्वते सुरनरोरगनेत्रहारी निःशेष निर्जित जगत्कृतयोपमानम् बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डुपलाशकल्पम् शशाङ्ककलाकलाप शुभ्रागुणा त्रिभुवनं तव लङ्घयन्ति ये संश्रिता त्रिजगदीश्वरनाथमेकम् कस्तान् निवारयति सञ्चरतो यथेष्टम् चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिः नीतं मनादपि मनो न विकारमार्गम् कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि गम्यो न जातुमरुतां चलिताचलानां दीपो परस्त्वमसि नाथ जगत्प्रकाशः नास्तं कदाचिदुपयाति न राहुगम्यः स्पष्टीकरोषि सहसा युगपच्चगन्ति नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायि महिमासि मुनीन्द्रलोके नित्योदयं दलितमोहमहान्धकारम् गम्यं न राहुवदनस्य न वारिदानाम् दिव्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगत्पूर्वशशाङ्कबिम्बम् किं शर्वरिषु शशिनान्नि विवस्वता वा युष्मन्मुखीन्दुदलितेषु तमः सुनाथ निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनम्रैः ज्ञानं यथा त्वयि विभाति कृतावकाशम् नैवं तथा हरिहरादिषु नायकेषु तेजस्पुरन्मणिषु याति यथा महत्त्वम् नैवं तु काच शकले किरणाकुलेति मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनोहरति नाथ भवान्तरेऽपि स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्यासुतं त्वदुपमं जननी प्रसूता सर्वादिशो दधति भानि सहस्ररश्मिं प्राच्येव दिग्जनयति स्फुरदंशु जालम् त्वामामनन्ति मुनयः परमं पुमांसम् आदित्यवर्णममलं तमसः पुरस्तात् त्वामेव सम्यगुपलभ्य जयन्ति मृत्युम् नान्यः शिव शिवपदस्य मुनीन्द्रपन्थाः त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यम् ब्रह्माणमीश्वरम् अनन्तमनन्दसेतु योगीश्वरं विदितयोगमनेकमेकम् ज्ञानस्वरूपं मनं प्रवदन्ति सन्तः बुद्धस्त्वमेव विबुदार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् धातासि धीरशिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि तुभ्यं नमस्त्रिभुवनार्थितहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय तुभ्यं नमः त्रिजगतः परमेश्वराय तुभ्यं नमो जिनभवोदधिशोषणाय को विस्मयोऽत्र यदि नाम गुणैरशेषै त्वं संस्थितो निरवकाशतया मुनीश दोषैरुपात विविधाश्रय जात गर्वै स्वप्नान्तरेऽपि न कदाचिदपेक्षितोऽसि उच्चैरशोकतरुसंश्रितमुन्मयूख मा भाति रूपं मलं भवतो नितान्तम् स्पष्टोल्लसत्किरणं मस्तमो वितानम् बिम्बं रवेरिव पयोधर पार्श्ववर्ती सिंहासने मणिमयूख शिखा विचित्रे विभ्राजते तव वपुः कनकावदातम् बिम्बं वियद्विलसदंशुलतावितानम् तुङ्गोदयादृशिरसीव सहस्ररश्मिः कुन्दावदातचलचामरचारुशोभम् विभ्राजते तव वपुः कलधौतकान्तम् उद्यच्छ शाङ्कशुचि निर्झरवारिधारम् उच्चैस्तटं सुरगिरेरिव शातकौम्भम् छत्रत्रयं तव विभाति शशाङ्ककान्तम् उच्चैः स्थितं स्थगितभानुकरप्रतापम् मुक्ताफलप्रकरजालविवृद्धशोभम् प्रख्यापयत्रिजगतः परमेश्वरत्वम् दिग्वभाग स्त्रैलोक्यलोकशुभसङ्गमभूतिदक्षः सद्धर्मराज जय घोषण घोषक सन् हे दुन्दुभिर्ध्वनति ते यशसः प्रवादी मन्दार सुन्दर नमेरु सुपारिजात सन्तानकादि कुसुमोत्कर वृष्टिरुद्धा गन्धोद बिन्दु शुभ मन्द मरुत्रपाता दिव्या दिवः पतति ते वयसां ततिर्वा प्रभावलय भूरि विभावि भोस्ते लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ति प्रोद्यद्विकार निरन्तर भूरि संख्या दीप्त्या जयत्यपि निशामपि सोम सौम्याम् स्वर्गापवर्गगममार्गविमार्गनिष्ठः सद्धर्मसत्त्वकथनैकपटुस्त्रिलोक्यः दिव्यध्वनिर्भवति ते विशदार्थ सर्वम् भाषास्वभावपरिणामगुणैप्रयोज्यः निग्रहे मनव पंकज पुंज कांति पर्युल्ल सन्नख मयूख शिखाभिराम पादौ पदानि तव यत्र जिनेन्द्र दत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति इत्थं यथा तव विभूतिर्भुजिनेन्द्र धर्मोपदेशन विधौ न तथा परस्य यादृक्प्रभादिनकृतः प्रहतान्धकारा तादृक् कुतो ग्रहगणस्य विकासिनोऽपि श्चोत्तनमदा विलविलोलकपोलमूलम् मत्तभ्रमदभ्रमरनादविवृद्धकोपम् ऐरावताभमिभं मुदत्तमापतन्तम् दृष्ट्वा भयं भवति नो भवदाश्रितानाम् भिन्नेव कुम्भगलदुज्ज्वलशोणितात् मुक्ताफलप्रकरभूषितभूमिभागः बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते कल्पान्तकालपवनोद्धतवह्निकल्पम् दावानलं ज्वलितमुज्ज्वलं उत्फुलिंगं विश्वं जिगत्सु निवसं मुखमापसंतं त्वन्नाम कीर्तन जलं शमयत्य शेषम्। रक्ते क्षणं समदकोकिलकण्ठनीलम् क्रोधोद्वतं फणिनमुत्फणमापतन्तम् आक्रामतिक्रमयुगेन निरस्तशङ्क त्वन्नाम नागदमनी हृदयस्य पुंसः। बलगत्तुरङ्गगज गर्जित भीमनाद माजौ बलं बलवतामपि भूपतीनाम् उद्यद्दिवाकरमयूखशिखापविद्वम् त्वत्कीर्तनात्तम इवाशुभिदामुपैति। कुन्ताग्रभिन्न गजशोणितवारिवाह वेगावतारतरणातुरयोध भीमे युद्धे जयं विजित दुर्जय जेय पक्षात् त्वत्पाद पंकज वनाश्रयिणो लभन्ते। अम्भो निधौ क्षुभित भीषण नक्र चक्र पाठीन पीठ भय दोल्वण वाणवाग्नौ रङ्गत्रङ्ग शिखर स्थित यान पात्रा त्रासे विहाय भवतः स्मरणाद् व्रजन्ति। उद्भूत भीषण जलोदर भार भुग्नः शोच्यां दशामुपगताश्च्युत जीविताशः त्वत्पाद पंकज रजोमृत दिग्ध देहा मर्त्या भवन्ति मकरध्वज तुल्य रूपः। आपाद कंठ मुरुशृंखल वेष्टितांगा गाढं बृहन्निकड कोटि निघृष्ट जंगः वन्नाम मंत्र मनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत बंध भया भवन्ति। मत्तद्विपेन्द्र मृगराज गवानलाही संग्राम वारिधि महोदर बंधनोत्थम् तस्याशु नाशमुपयाति भयं भीव यस्तावकं स्तवमिमं मतिमान भीते। स्तोत्रस्रजं तव जिनेन्द्र गुणैर्निबद्धां भक्त्या मया विविध वर्ण विचित्र पुष्पां धत्ते जलो य इह कंठ गतामजस्रम् तं मानतुङ्गमवशासमुपैति लक्ष्मीः। इति श्रीमानतुङ्गाचार्य विरचितं भक्तामरस्तोत्रं सम्पूर्णम्।